इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य भारतमण्डपम् इत्यत्र स्टार्टअप महाकुम्भं सम्बोधयिष्यति। एकस्मिन् सामाजिक अन्तर्जाल सन्देश माध्यमेन श्रीमोदिना उक्तं यत् एषः एकः मञ्चः अस्ति यः स्टार्टअप जगतः हितधारकान् नवीकरिणः भावि उद्यमिनां च एकत्रितं करोति। सः अवदत् यत् स्टार्टअप जगति भारतस्य प्रगतिः विगतेषु वर्षेषु अद्भुता अस्ति। सोमवासरे आरब्धस्य त्रिदिवसीयस्यास्य आयोजनस्य अद्य अन्तिमः दिवसः अस्ति। अस्मिन् आयोजने विभिन्न स्टार्टअप इति नवोद्योगानां विभिन्न मण्डपाः सन्ति, येषु एआई, बीटूबी, एग्रीटेक, डीपटेक, क्लाइमेटटेक, गेमिंग, ई स्पोर्ट्स, फिटनेस सदृशाः नैके मण्डपाः सम्मिलिताः सन्ति। अस्य महाकुम्भस्य उद्देश्यं धनपतिनां निवेशकानां च भारतीय व्यापारेण सह संयोजनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी श्वः आरभ्य भूटानस्य द्विदिवसीय यात्रायां भविष्यति। यात्रावधौ प्रधानमन्त्री भूटानदेशस्य राज्ञा जिग्मे खेसर नामख्याल वांगचुक इत्यनेन, भूटानस्य चतुर्थराज्ञा जिग्मे शिंगे वांगचुक इत्यनेन सहापि मेलनं करिष्यति। सः भूटानदेशस्य समकक्षेण सेरिंग टोबगे इत्यनेन सह अपि वार्तालापं करिष्यति। विदेशमन्त्रालयेन उक्तं यत् भारतस्य भूटानस्य च नियमितरूपेण उच्चस्तरीयस्य आदानप्रदानस्य परम्परायाः अनुरूपं तथा च सर्वकारस्य नेबरहुड फर्स्ट इत्यस्मिन् नीतेः उपरि यात्रा भवति। अपि च उक्तं यत् भारतभूटानयोः मध्ये अद्वितीयं स्थायित्वं सहयोगत्वं चास्ति, यो हि पारस्परिकविश्वासे अवगमने सद्भावनायां च आधारितम् अस्ति। विदेशमन्त्रालयेन उक्तं यत् एषा यात्रा उभयोः पक्षयोः द्विपक्षीय क्षेत्रीय विषयेष् विचार विनिमयस्य अवसरं प्रदास्यति, उभयोः देशयोः जनानां हिताय अनुकरणीय सहयोगं विस्ताराय तीव्रीकरणाय च उपायानां विषये अवसरं प्रदास्यति। सर्वोच्चन्यायालयेन ह्यः नागरिकता संशोधनाधिनियमस्य सीएए इत्यस्य कार्यान्वयनावरोधनम् अस्वीकृतम्। गतसप्ताहे अधिसूचिताधिनियमस्य समाह्वाने 37,200 यावत् याचिकासु प्रतिक्रियां प्रदत्ता सर्वोच्चन्यायालयेन सर्वकाराय सप्ताहत्रयम् अपि प्रदत्तम्। मुख्यन्यायाधीश डीवाई चन्द्रचूड, न्यायाधीश जेबी परदीवाला, न्यायाधीश मनोज मिश्र च अस्य विषयस्य श्रवणं कृतवन्त। याचिकाकर्तास् इंडियन यूनियन मुस्लिम लीग, कांग्रेसस्य विपक्षीदलस्य च नेता जयराम रमेश, तृणमूल कांग्रेस दलस्य महुआ मोइत्रा च आसन्। अस्मिन् प्रकरणे अग्रिम कार्याचरणं अप्रैल मासस्य नवमे दिनांके निर्धारितमस्ति। भाजपाया वरिष्ठ नेतृभिः नरेन्द्रमोदिना च ह्यः राष्ट्रिय जनतांत्रिक गठबन्धनस्य प्रत्याशिनां समर्थने केरलस्य पलक्कड़स्थले पथ प्रदर्शनं विहितम्। लोकसभा निर्वाचनस्य घोषणायाः अनन्तरं श्रीमोदिनः इदं प्रथमं पथ प्रदर्शनम् अस्ति। अस्मिन् पथ प्रदर्शने भारतीय जनता पार्टीति दलस्य केरलक्षेत्रस्य अध्यक्षेण के सुरेन्द्रन इत्यनेन एवं पलक्कड पोन्नानी संसदीय क्षेत्रेभ्यः एनडीए प्रत्याशिभिः अपि भागं स्वीकृतम्। तेनोदीरितं यत् पीएमके इत्यनेन सह सन्धिं कृत्वा एनडीए इत्यनेन नवोर्चा सम्प्राप्ता। स्विस ओपन सुपर 300 बैडमिंटन प्रतियोगितायाः 24,000-तमवर्षस्य संस्करणस्य आरम्भः स्विट्जरलैंड देशस्य बेशेल नगरे अभवत्। पुरुष एकल विभागे भारतस्य लक्ष्यसेनः किदाम्बि श्रीकान्तः प्रियांशु राजावत अपि च के जॉर्ज स्वीय द्वात्रिंशत् चक्रात्मकस्य क्रीडनं करिष्यन्ति इति वार्ताः।